नमस्कारः. तर्हि सर्वेषां नूतनन्यायवर्गे स्वागतं पुनः. गतवर्गे अस्माभिः किं किम् अधीतम् इत्यस्य विषये किञ्चित् पुनरावलोकनं कृत्वा ततः अग्रे सरेम. गतवर्गे वयं दृष्टवन्तः सामान्यम् इति यः पदार्थः अस्ति तस्य द्वैविध्यं वयं दृष्टवन्तः. सामान्यं द्विविधम् इति दृष्टवन्तः. तर्हि का वदति? विजया भगिनी वदति वा? सामान्यं द्विविधम् इति दृष्टं खलु, कीदृशं तर्हि? विजया भगिनी अस्ति? अस्तु, शशिकरण महोदय वदति वा सामान्यं द्विविधम्?
आं भगिनि, सामान्यं द्विविधं, तत्र परम् अपरम् इति द्विविधं भवति.
हा, परं सामान्यम् अपरं सामान्यम् इति सामान्यं द्विविधं भवति. अस्तु, एकम् उदाहरणं दत्वा किञ्चित् वदतु. परम् इति कदा उच्यते, अपरम् इति कदा उच्यते इति.
आम्, परम् इत्युक्ते अर्थः भवति अत्र बृहत् इति. उदाहरणं दातुं शक्नोमि अहम्. अत्र पुस्तके अपि घटस्य उदाहरणं स्वीकृतम् अस्ति. कथं भवति इति, घटं तु प्रथमं तु घटे पृथिवीत्वम् अस्ति, अनन्तरं घटे घटत्वमपि अस्ति, परन्तु पृथिवी घटत्वम् अपेक्षया पृथिवीत्वं तु परम् अस्ति. किमर्थम् इत्युक्ते पृथिवी इत्युक्ते अत्र घटमपि भवितुम् अर्हति, वृक्षः अपि भवितुम् अर्हति, गृहमपि भवितुम् अर्हति, अतः तत्तु परम्. परन्तु पृथिवीत्वम् अपेक्षया घटत्वं तु अपरं भवति, अतः तत् अपरं सामान्यं भवति, पृथिवीत्वं तु परं सामान्यं भवति.
हा, समीचीनम् इति कश्चन परिचयः जातः, परं चेति अनयोः जातः. अस्तु, अनन्तरं तदनन्तरं सामान्यम् इति परिशील्य नूतनपदार्थः अस्माभिः दृष्टः, विशेषः इति पदार्थः. तर्हि शिवराम महोदय, विशेषः इत्यस्य विषये किञ्चित् वदति वा?
नित्यद्रव्यवृत्तयः विशेषः.
शिवराम महोदय, किमपि अभवत् भवतः?
नित्यद्रव्यवृत्तयः विशेषः. नित्यद्रव्यविशेषः, विशेषः नाम एकः पदार्थः अन्यस्मिन् अन्यपदार्थेन कथं विभज्यते, कथं सः पदार्थः अन्यपदार्थस्य अपेक्षया भिन्नः कथम् अस्ति, तत् वक्तुं विशेषः इति पदार्थः केवलन्यायशास्त्रेण एव स्वीकृतः. तत्र उदाहरणं दत्तमस्ति.
अस्तु, वदतु महोदय.
उदाहरणं तत्र दत्तमस्ति पाषाणखण्डस्य. एकं पाषाणं स्वीकृत्य तत् विभागद्वयं तस्य कृतं, पुनः एकं विभागं स्वीकृत्य पुनः तस्य विभागद्वयं तत्र कृतमस्ति. एतत् पद्धत्यः यदि वयं विभाग कर्तुम् अग्रे अग्रे गच्छामः चेत् तत्र चरमस्थितिः प्राप्स्यते. चरमस्थितिः नाम अन्तिमस्थितिः, यस्य विभागं वयं कर्तुं न शक्नुमः तस्य परमाणु इति संस्कारस्य भविष्यति. तर्हि द्वयोः परमाणुमध्ये विभिन्नता ज्ञातुं सः परमाणुः कः पाषाणतः निर्मितः अस्ति, सः पाषाणः विशेषः तत्र वर्तते. एकः परमाणु अपरं परमाणु तथा अपरपरमाणुमध्ये भेदः विशेषत्वेन वयं वक्तुं शक्नुमः.
हा हा, समीचीनं महोदय. तर्हि विशेषः इति तादृशपदार्थः यः परमाणूनां मध्ये भेदज्ञापनाय स्वीकृतः आसीत्. वस्तुतः वैशेषिकैः, कणादमहर्षिणा प्रतिपादितं शास्त्रं वैशेषिकशास्त्रं, तत्र विशेषः इत्यस्य उल्लेखः नैयायिकैः सह पदार्थः स्वीक्रियते इति. अस्तु, विशेषः तादृशपदार्थः अस्ति. अपि च नित्यद्रव्यवृत्तिः इत्युक्ते नित्यद्रव्येषु एव वर्तन्ते विशेषाः इति. अपि च अनन्ताः विशेषाः सन्ति, यतोहि परमाणवाः तु अनन्ताः किल, तत्र सर्वत्र विशेषः इति वर्तते इति आगच्छति. अस्तु, तर्हि अद्य
अहं सिद्धा अस्मि, विजया
अस्मि अत्र. अस्तु भगिनि, चतुर्दशे पुटे पश्यतु तर्हि. अग्रिमपरिच्छेदः अस्माभिः पठनीयः आसीत् खलु, यथा परमाणोः इति पठतु भवती
भगिनी. तत् पूर्वं मम एकः प्रश्नः अस्ति. इदानीं भवती उक्तवती विशेषः तु नित्यद्रव्ये एव भवितुम् अर्हन्ति इति खलु. वयं यथा पूर्वं दृष्टवन्तः आकाश दिक् आत्मा मनः एते सर्वे तु नित्यद्रव्याः नित्यद्रव्याणि खलु.
समीचीनः प्रश्नः महोदय, अद्य अस्मिन्नेव परिच्छेदे आगच्छति सः विषयः. पठेम.
अस्तु, मम प्रश्नः अनन्तरं पृच्छामि तर्हि.
अस्तु अस्तु, तथापि प्रश्नः अस्ति चेत् वदतु. अस्तु, केन केन आगतं तदभ्यन्तरे कृपया नामानि उच्यन्तम्.
नमस्कार भगिनि.
अज्जितः महोदय अनन्तरं.
नमस्कार भगिनि सभ्यसाचि.
सभ्य महोदय अनन्तरं.
नमस्कार भगिनि, प्रिया अस्मि.
प्रिया भगिनी नमस्कारः. सङ्गीता
भगिनी. भगिनी सङ्गीता अस्मि, नमस्कारः.
नमस्कारः भगिनि. प्रिया भगिनी किमपि वदति.
अद्य अहं केवलं शृणोमि.
अस्तु भगिनि, समीचीनं,
क्षम्यताम्.
हरि ओं महोदय, अहं भानु चैतन्य अस्मि.
नमस्कारः महोदय. अन्य कोऽपि?
हरि ओं.
नमस्कारः. अस्तु, अजिता महोदय, सभ्य महोदय, प्रिया भगिनी, सङ्गीता भगिनी, भानु चैतन्य महोदय इति नूतनतया. अस्तु, इतः अग्रे गच्छामः. शिवराम महोदय, भवन्तं किञ्चित् म्यूट् करोमि हा, यदा वदति तदा कृपया अन्म्यूट् करोतु. अस्तु, धन्यवादाः. तत्र विजया भगिनी कृपया पठतु यथा परमाणु. कुत्र? चतुर्दशपुटे.
अतः तादृशज्ञानसम्पादनाय एतत्
भगिनि कुत्र अस्ति यथा परमाणोः इत्यस्मात् आरभ्य चतुर्दशे पुटे पेज् 14 इति यथा परमाणोः इति अस्ति खलु प्रथमवाक्यम्.
क्षम्यतां भगिनि, मम एकः प्रश्नः अस्ति अत्र उदाहरण तस्य ज्ञातुं पाषाणस्य विषये. अत्र एकपाषाणतः क ख इति पाषाणद्वयं निर्मितं, खण्डं कृतम्. अनन्तरं क पाषाणतः ग घ इति खण्डद्वयम् अभवत् खलु. ग पाषाणतः च तथा छ विभागः अभवत्, च विभागः तथा छ विभागः. तत्र च विभागतः त तथा त विभागः अभवत्.
सत्यं.
तर्हि च इति परमाणु कथं भवति, त इति परमाणु भवति?
नितरां भिन्नं चित्रं महोदय, सम्बन्धः एव नास्ति. तैः किञ्चित् भिन्नरीत्या नामकरणं करणीयमासीत्, अनेन भ्रमः अभवत्. तर्हि नितरां भिन्नं. अस्तु,
शरणं किञ्चित् भिन्नः तत्र.
अस्तु, विद्या भगिनी प्राप्तं वा, पठति.
एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः.
अस्तु भगिनी, वयं चतुर्दशे पुटे स्मः, भवती अनन्तरं पठतु. अस्तु, अधुना शृणोतु, 14 पेज् 14 इति. राधिका भगिनी पठति वा.
यथा परमाणोः अवयवो नास्ति तथैव आकाशादिद्रव्याणामपि अवयवाः न सन्ति. अतः परस्परभेदज्ञानाय आकाशादावपि विशेषापेक्षया अपेक्षा वर्तते. परमाणुः नित्यः, आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत् सर्वम् अभिसन्धायोक्तं नित्यद्रव्यविवृत्तयो विशेषाः. अनन्ताः परमाणवः नित्यद्रव्याणि च, तावन्तः विशेषाः इति तेषां तेषाम् अनन्त्यम् अपि सिद्ध्यति. यथा परमाणुः अवयवाः अवयवो नास्ति तथैव आकाशादिद्रव्याणामपि अवयवाः न सन्ति. वयं ज्ञातवन्तः परमाणुः परमाणोः अवयवाः नास्ति, तस्मात् कारणार्थमेव परमाणुः विशेषः इति वयं दृष्टवन्तः. तादृशमपि आकाशादि द्रव्याणाम् आकाशः आरभ्य आकाशः कालदिक् आत्मा मनः सर्वाणामपि अवयवाः न सन्ति. अतः परस्परभेदज्ञानाय आकाशादपि विशेषापेक्षा वर्तते. तस्मात् कारणार्थं परस्परभेदज्ञानाय सः अर्थः कः भगिनि?
हा भगिनि, तर्हि भवत्याः मनसि किमस्ति इति वदतु.
आकाशः दिक् आत्मा मनः कथं वयं भेदः स्थापितुं शक्नुमः? तस्मात् कारणार्थम् आकाशे एकः विशेषः भवति, तदनन्तरम् आत्मनि एकः विशेषः भवति. तादृशं वयम् अहं चिन्तयामि.
हा तावदेव समीचीनं. परस्परभेदम् इत्युक्ते नित्यद्रव्याणि सन्ति खलु, आकाशः कालः दिगात्मा मनः, तयो तेषां मध्ये परस्परभेदज्ञापनाय तत्रापि विशेषः इति स्वीकृतः.
अस्तु अस्तु.
परन्तु परमाणूनां मध्ये तथा नास्ति. यदा वयं वदामः परमाणूनां मध्ये भेदस्थापनम् इत्युक्ते बहवः परमाणवः सन्ति, तेषां मध्ये भेदज्ञापनाय विशेषः इति. परन्तु आकाशः इति एकः एव. अत्र परस्परभेदज्ञापनम् इति यदा उच्यते तर्हि आकाशः अपि च अपरं किमपि नित्यद्रव्यं कालः इति चिन्तयतु, तथा तयोः मध्ये भेदज्ञापनम् इति.
भगिनी कृपया पुनः वदतु.
भगिनी अत्र परस्परभेदज्ञापनाय इति भगिनी पठितवती खलु, परस्परभेदनाय कुत्र आकाशादौ अपि इति उक्तम्. आकाशादौ इत्युक्ते आकाशः इत्यस्मात् आरभ्य आकाशः कालः दिगात्मा मनः तेषां मध्ये परस्परभेदज्ञापनार्थं विशेषः इति पदार्थः स्वीकृतः अस्ति इति. बुद्धम्?
आम् बुद्धम्, धन्यवादः.
भगिनी तर्हि एकः प्रश्नः अस्ति, आकाशः कालः दिक् आत्मा मनः इति भिन्नभिन्नपदार्थाः द्रव्याणि, तर्हि भिन्नानि द्रव्याणि, तर्हि तत्र किमर्थं भेदः स्थापनीयम्? भेदः किमर्थं भेदः?
एकवारं तथा कृतवन्तः एव इति चेत् पुनः किमर्थं भेदः इति खलु भवत्याः?
द्रव्यमेव भिन्नं, तर्हि किमर्थं पुनः भेदः किमर्थं?
हा इति स्वीक्रियते भगिनि तैः. अस्तु, आकाशे यदि वयं चिन्तयामश्चेत् आकाशे तथा किं स्यात् येन आकाशः भवेत् इति, तदर्थमेव तैः पृथक् विशेषः इति स्वीक्रियते. भवती यद् पृष्टवती तदपि समीचीनमेव. यदि भिन्नं द्रव्यम् इत्येव स्थापितं तर्हि पुनः किं? विजया भगिनी भवतीम् अहं किञ्चित् म्यूट् करोमि. हा किमपि श्रूयते
भगिनि?
हा विद्या भगिनी, प्रश्नः सम्यक् एव. परन्तु यदि अस्माभिः ज्ञातव्यं चेत् आकाशे किं स्यात् येन तत्पृथक्, तदर्थं विशेषः इति स्वीकृतः स्यात् तैः.
यतोहि ते सर्वे सर्वाणि समानानि द्रव्याणि इति कृत्वा वा, अथवा न दृश्यते इति कृत्वा वा, अथवा
न दृश्यते इति अपि एकम्, अपि च व्यवहारमाध्यमेन एव अस्माकं ज्ञानस्य परिधौ आगच्छन्ति. कालः भवतु, दिक् भवतु, यत्किमपि भवतु, कालः अपि एकः एव.
अस्तु अस्तु
अस्तु. व्यवहारमाध्यमेन सूर्योदयः सूर्यास्तः तदुक्त्वा एव अस्माकं ज्ञानस्य परिधौ भवन्ति.
अस्तु अस्तु भगिनि, धन्यवादः.
शब्दात् ज्ञानं वा भगिनि?
तद् हा पश्येम भगिनि, आकाशस्य समये कालस्य समये तदा चर्चयामः. अस्तु, राधिका भगिनी अग्रे समापयतु.
परमाणुः नित्यः, आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति. वयं जानीमः परमाणुः नित्यः, तादृशम् एव आकाशदयश्च द्रव्याणि अपि नित्याः इति ज्ञात्वा नित्यद्रव्यवृत्तयोः विशेषाः इति वयं ज्ञातवन्तः. परमाणवः अनन्ताः, नित्यद्रव्याणि च, द्वयोः अपि विशेषाः अनन्ताः खलु?
हा, विशेषाः अनन्ताः, परन्तु सर्वेषु परमाणुषु परमाणूनां सङ्ख्या अपि तथा एव खलु, अनन्ताः सर्वेषु परमाणुषु वर्तन्ते इति कृत्वा विशेषाः अपि अनन्ताः.
अस्तु, तावन्तः विशेषाः इति तेषाम् अनन्त विशेषाः अपि अनन्ताः इति वयं सिद्ध्यन्ते इति सिद्ध्यति.
हा, तेषाम् अनन्त्यम्, अनन्त्यम् इत्युक्ते अनन्तत्वं सिद्ध्यति.
तत्र एकः प्रश्नः अस्ति भगिनि, परमाणवः अनन्ताः तदतो अहं जानामि, परन्तु नित्यद्रव्याणि अनन्ताः इति
ते अनन्ताः न, तत्र अनन्ताः इति केवलं परमाणवः इत्यस्य विशेषणं तावदेव. अनन्ताः, परमाणवः, नित्यद्रव्याणि च, तत्सर्वं मिलित्वा वस्तुतः अनन्तानि द्रव्याणि एव खलु. अनन्ताः इत्युक्ते इन्फनैट्, इन्फनैट् प्लस् किं पञ्चनित्यद्रव्याणि, तदपि इन्फनैट् एव इति कृत्वा विशेषः तत्र तत्र सर्वत्र वर्तते, नित्यद्रव्यवृत्तिः विशेषः.
अस्तु,
धन्यवादः. हा, समीचीनम्. शशिकिरण् महोदय, अधुनापि प्रश्नः अस्ति वा?
अस्ति, अहम् इदानीं पृच्छामि. तदेव इदानीं उक्तवती, आकाश, दिक्, आत्मा, मन इति सर्वे नित्यद्रव्याणि, अतः तेषाम् अवयवाः न भवन्ति खलु. परन्तु तत्र त्रयोदशपुटे परिच्छेदे एकं वाक्यमस्ति, यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते. अत्र यथा अहम् अवगतम्, आत्मनः विभजनं कृत्वा, आत्मना तु नित्यद्रव्यम्, आत्मन् तु तत्र तत्र एकैकं मनः इत्युक्ते, तत्र अहं चिन्तितवान् आत्मनः विभजनं कृत्वा बहवः मनांसि आगतानि इति.
तत् किञ्चित् विषये जाटिल्यम् अस्ति महोदय, यतोहि अनन्ताः आत्मा, जीवात्मा, परमात्मा इति अस्तु, ईश्वरः एकः एव, परन्तु जीवात्मानि अनन्तानि, आत्मनः अनन्ताः स्युः, तत्तत् सम्बन्धम् एकं मनः भवेत् अस्तु, परन्तु आत्मनः विभजनं कृत्वा तत्र तत्र मनः इति कल्पितवन्तः इति न. अस्मिन् जन्मनि एकं मनः, अपरस्मिन् जन्मनि अपरः मनः स्यात् आत्मनः खलु इति, तथा अस्ति.
वेदान्तविषये अहं न जानामि, परन्तु यदा भवती उक्तवती तादृशं आत्मना इत्युक्ते तत्र जीवात्मा इति स्वीकुर्मः चेत् तत् भवितुम् अर्हति, परन्तु अहं तावत् अहं न जानामि वेदान्तविषये.
वेदान्तविषये नास्ति, न्यायशास्त्रे अपि प्रत्येकं जीवात्मनः एकमेकं मनः इति तावदेव अस्ति, परन्तु भवतः प्रश्नः कः आसीत्?
मम प्रश्नः आसीत् अत्र मनः अपि नित्यद्रव्यम्, अतः तत्र अवयवाः न भवन्ति, तस्य विभजनं कर्तुं न शक्नुमः वयं, परन्तु आत्मनः एकैकं मनः इत्युक्ते वन् टु वन् करेस्पाण्डेन्स् इति भवति वा, तत् कथम् इति अहं न.
सत्यं, वन् टु वन् करेस्पाण्डेन्स्, प्रत्येकम् आत्मना सह एकं मनः सम्बद्धं भवति तावदेव.
अस्तु, एकैकस्य आत्मनस्य मनः भवति, तस्य मनस्य क्षम्यतां मनसः विभजनं तत्र न भवति इति.
सत्यं सत्यं, पाषाणखण्डवत् नास्ति आत्मा वा मनः इति. अस्तु, हा, समीचीनं महोदय. तर्हि अत्र विशेषः इत्यस्य विषये एकः अन्तिमः विषयः वक्तव्यः अस्ति. विशेषः इति एकः पदार्थः इति स्वीकृतः, विशेषः नित्यद्रव्याणां मध्ये भेदज्ञापनाय इति वयं दृष्टवन्तः, इत्युक्ते प्रत्येकं विशेषः भिन्नः खलु, तदा एव विशेषस्य तादृशभेदज्ञापनसामर्थ्यं भवेत्, नो चेत् न भवेत्. प्रत्येकं विशेषः भिन्नः। तर्हि विशेषाणां मध्ये एकं विशेषः अपरः विशेषः, तयोः मध्ये भेदं कथं जानीमः इति प्रश्नः आगच्छति। तत्र नैयायिकैः प्रत्येकस्मिन् विशेषे स्वतो व्यावर्तकत्वम् इति कश्चन स्वभावः अथवा धर्मः अस्ति इति स्वीक्रियते। स्वतो व्यावर्तकत्वम् इति, स्वतो व्यावर्तकत्वम् इत्युक्ते स्वस्य भेदं स्वयं स्थापयति, स्वस्य भेदं स्वयं स्थापयति विशेषः। तादृश धर्मः अथवा स्वभावः विशेषे अन्तर्गतः भवति। अतः एव एकः विशेषः अपरस्मात् विशेषात् भिन्नः भूत्वा यस्मिन् द्रव्ये भवति तस्य द्रव्यस्यापि भेदस्थापनं कर्तुं शक्नोति इति। अस्तु, तर्हि एकः कश्चन सिद्धान्तः अस्ति, विशेषे स्वत्तो नाम व्यावर्तकत्वं नाम एकः धर्मः अस्ति, स्वस्य भेदं स्वयं स्थापयति इत्युक्ते परमाणूनां खण्डनं 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 कृत्वा, क्षम्यतां, द्रव्यस्य खण्डनं खण्डनं कृत्वा तस्मिन् स्तरे प्राप्तवन्तः, यतः यत्र पुनः खण्डनम् अशक्यम् अभवत् खलु तदा परमाणुः इति प्राप्तवन्तः। परमाणूनाम् अवयवाः न आसन् इति कृत्वा परमाणुषु विशेषः इत्यस्य पदार्थस्य आवश्यकता अभवत्। परन्तु पुनः विशेषम् अपि स्वीकृत्य विशेषाणां मध्ये भेदस्थापनार्थं पुनः खण्डनं कुर्मश्चेत् तत्र कश्चन अनवस्थादोषः, अनवस्थादोषः इति आगच्छति। कियत् पर्यन्तं तथा कुर्मः, कियत्पर्यन्तं खण्डनं कर्तुं शक्नुमः? अतः नैयायिकैः उच्यते विशेषे स्वस्य भेदं स्वयं स्थापयति इति, स्वतो व्यावर्तकत्वं नाम धर्मः विद्यते। अस्तु, कोऽपि प्रश्नः वा कस्यचित्?
अभिसन्धाय पदस्य अर्थः किम्?
अभिसन्धाय इत्युक्ते स्थापयित्वा, मनसि स्थापयित्वा प्रायः। एतत् सर्वम् अभिसन्धाय, हा, एतत् सर्वं कन्सिडर् कृत्वा उक्तं नित्यद्रव्यवृत्तयो विशेषाः इति।
स्वतो व्यावर्तकत्वम् इति धर्मः जातिः नास्ति,
नास्ति, नितरां नास्ति। समीचीनः प्रश्नः तदपि, हा, यतोहि प्रत्येकस्मिन् विशेषे अपि तथा अस्ति स्वतो व्यावर्तकत्वम् इति। मम अपि प्रश्नः आसीत् तेषु दिनेषु, उत्तरं तु धर्मः इत्येव प्राप्तं, न तु जातिः।
यतोहि विशेषः इति एकः पदार्थः इति वा, अथवा तत्र कारणं किम्?
समानानां धर्मः सामान्यम् इति उच्यते खलु भगिनि, हा, यथा किन्तु एकदृष्ट्या विशेषाः समानाः न सन्ति एव, यतोहि स्वस्य वेदं स्वयं स्थापयति इति। मयापि पृष्टः आसीत्, पुनः पृच्छामि, किन्तु मम अवगमने तत्र धर्मः इति एव निष्कर्षः जातः वर्गे अस्माकम्। आकाशे यथा आकाशत्वम् अस्ति, सः अपि स्वभावः अथवा धर्मः इति उच्यते, हा, तद्वदेव धर्मः।
अस्तु भगिनि,
अस्तु, अग्रे विद्या भगिनी वा पठतु।
समवायसाधनप्रकारः, द्रव्यादित्रिकं निरूप्य सामान्यविशेषो निरूपितौ, ततः समवायं निरूपयति इति। अत्र समवायसाधनप्रकारः इति अस्ति। प्रथमं वयं द्रव्यं गुणः कर्म इति त्रयः पदार्थाः निरूपितवन्तः। तदनन्तरं सामान्यम् इति वयं दृष्टवन्तः। अनन्तरं विशेषः इति पदार्थः अपि दृष्टवन्तः, पदार्थं दृष्टवन्तः। इदानीं समवायं निरूपयति। समवायस्त्वेक एव, समवायः तु एकः एव इति। इत्थं हि समवायसाधनम् आहुः, कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्कारे च भवति, ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते। एवं च पूर्वं विविक्तौ भिन्नस्थानौ स्थानस्थितौ हस्तौ संयुक्तौ भवतः अग्रे इदानीम् अत्र समवायं कथं साधनीयम् इति अत्र दत्तमस्ति. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः इत्युक्ते हस्तौ कुत्र भवति तत्र अस्ति इदानीं. तदनन्तरं मनुष्यः नमस्कारं कर्तुम् इच्छति तर्हि हस्तद्वयम् एकत्र स्थापयति. तत्र क्रिया जाता, हस्तयोः संयोगः उत्पद्यते इत्युक्ते तत्र संयोगः इति गुणः खलु. हस्तयोः संयोगः उत्पद्यते. एवं पूर्वं विविक्तौ इत्युक्ते पूर्वं स्वस्थानस्थितौ भिन्नस्थानस्थितौ इदानीं संयुक्तौ भवतः. इदानीम् एकत्र नमस्कार यदा नमस्कारं कुर्मः तत्र एकत्र भवति, हस्तद्वयमपि एकत्र भवति, संयुक्तौ भवतः इति अस्ति.
हा, इति मनसि भवेत् प्रथमतया. समीचीनं भगिनि. इत्युक्ते प्रथमतया पृथक् पृथक् आस्थां हस्तौ, अनन्तरम् एकत्र तयोः प्राप्तिः अभवत्, पुनः पृथक् कर्तुं शक्नुमः खलु हस्तौ. तर्हि तादृशहस्तयोः मध्ये भिन्नस्थानस्थितौ एकत्र आगतवन्तौ, पुनः यत्र आस्तं तत्र गतवन्तौ, तादृशहस्तयोः मध्ये संयोगः अस्ति इति अत्र मनसि भवेत्. हस्तौ संयुक्तौ इति प्रतीतिः आगच्छति. अस्तु, किन्तु समवायस्य विषये किं वदन्ति इति अग्रे इतोपि किञ्चित् चिन्तयामः. अग्रे रविमहोदय पठति वा? रविमहोदय पठति. अधुना यद् चतुर्दशे पुटे महोदय समवायस्य निरूपणे एकम् इति पश्यति वा तत्र बिन्दुः?
परन्तु घटोत्पत्ति.
हा हा, तत्रैव
परन्तु घटोत्पत्ति घटोत्पत्ति घटोत्पत्तिः यत्र भवति तत्र कपालद्वयसंयोग अनन्तरं संयोगानन्तरम् एव कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः कपालः अन्यत्र. ततः कपालद्वयसंयोगानन्तरम् उभयोः अपि सम्बन्धः.
किम् अवगतम्?
घटस्य उत्पत्ति तत्रैव भवति यत्र कपालः च कपालद्वयः एकस्मिन्नेव स्थाने कपालद्वयस्य संयोगः भवति.
हा, कपालः घटस्य अत्र फुट्नोट् मध्ये अस्ति, कपालः घटस्य अवयवः. अस्तु, तस्य अन्येन कपालेन संयोगेन संयोगे सति घटः उत्पद्यते. इत्युक्ते वयं तु पाटरि न जानीमः, परन्तु यदा कुलालः इत्युक्ते पाटर् घटं निर्माति, सः किं करोति इति चेत् प्रथमं कपालं निर्माति. कपालः इत्युक्ते घटस्य अर्धभागः इति चिन्तयतु. अस्तु, प्रथमं कपालं निर्माति, अपि च कपालद्वयं स्वीकृत्य कपालद्वयं तत्र लेपनं कृत्वा मृद् इति इत्यादिकं स्वीकृत्य लेपनं कृत्वा कपालद्वयसंयोगं कारयति. तदा कपालद्वयसंयोगानन्तरं घटस्य उत्पत्तिः भवति. तादृशी प्रक्रिया अस्ति घटोत्पत्तिः यत्र भवति तत्र. अस्तु, अग्रे महोदय. एवं कदाचित् भवेत् वा इति?
एवं यदि
एवं कदाचित् भवेत् वा इत्यस्मात् आरभ्य कृपया.
एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः कपालः अन्यत्र स्थितः अन्यत्र, तथा कपालद्वयस्य संयोगानन्तरम् उभयोः अपि सम्बन्धः यदि कपाल अन्यत्र अस्ति च घटः अन्यत्र तदपि उभयोः कोऽपि सम्बन्धः अस्ति
अत्र प्रश्नः कः इति चेत् तादृशस्थितिः भवति वा यत्र कपालः अपरत्र एकस्मिन् प्रकोष्ठे घटः अपरस्मिन् प्रकोष्ठे तादृशी स्थितिः कदाचित् भवति वा
न भवति
न भवति समीचीनम् इति एव वार्ता तत्र यद् विद्या भगिनी पठितवती अस्तु सः प्रसङ्गः अपि च कपालद्वयं घटः सः प्रसङ्गः यद् भवान् पठितवान् तत्र भेदः कः
तत्र कपाल च घटस् एकस्मिन् एव स्थाने भवति च तस्य विग्रहः न भवति
बहु समीचीनं महोदय कपालघटौ विभक्तौ न कदापि भवेताम् इति किल इति एव वार्ता अस्तु इति मनसि भवेत् प्रथमः प्रश्नः घटोत्पत्तिः यत्र भवति तत्र कपालद्वयमपि घटे घटसम्बद्धं भवतः इति अस्तु विभजनं न शक्यं विभजनं कृतं चेत् घटः एव नष्टः तादृशी परिस्थितिः स्यात् अस्तु द्वितीयप्रश्नं विजय प्रश्नः अस्ति वा महोदय रविमहोदय कोऽपि प्रश्नः
नास्ति
अस्तु विजी भगिनी तर्हि अग्रे अग्रिमबिन्दुः
अस्तु भगिनि घटस्य आरभ्य भगिनि घटस्य तत्रूपस्यापि च एवमेव चिन्तनीयं किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बद्धम् इति सम्भाव्यते इति प्रश्नः घटस्य तत्रूपस्य अपि च एवमेव चिन्तनीयं घटः उदाहरणं हस्त उदाहरणौ वत् नास्ति घटः कपालार्थभागं घटः अर्थभागम् अस्ति तयोः योजनाय घटः भवितुम् अर्हति इति कारणेन
इति प्रथमः बिन्दुः अत्र द्वितीयबिन्दुं भवती यत् पठति यं पठति तत्र विषयः कः
घटस्य रूपस्य विषयं
घटस्य
तत्रूपस्य अपि च एवमेव चिन्तनं किं घटं विहाय तत्रूपम् इत्युक्ते घटस्य रूपम्
अत्र समस्तपदमस्ति घटस्य रूपं तद्रूपम् इति
घटस्य रूपम् अस्तु भगिनि भगिनि किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् इति सम्भाव्यते घटं विहाय अन्यत्र घटं भवितव्यम् इति चेत् घटस्य द्वे भागद्वयं आवश्यकम्
अत्र भागद्वयस्य विषयः नास्ति खलु द्वितीयबिन्दौ घटः
तत्रूपस्य विषये
घटः घटस्य रूपं
घटं विहाय
वदतु
घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् इति घटे अन्यत्र गुणम् आश्रयति चेत् घटेन तत्रूपं न सम्भवति
अस्तु अत्र वार्ता का इति चेत्
घटं विहाय
अन्यत्र एकनिमिषं वदिष्यामि अन्यत्र आश्रयं स्वीकृत्य घटस्य रूपं स्थातुं शक्नोति वा इति
न शक्नोति
इति एव वार्ता अस्ति घटस्य अपि च तस्य रूपस्य तादृशसम्बन्धः घटस्य रूपं पटेन भवितुमर्हति खलु
आम्
घटस्य रूपं घटे एव भवति अपि च पृथक् न भवति एव
आम् सत्यम्
इति द्वितीयः प्रश्नः तस्य उत्तरं किम्
घटस्य अन्यत्र आश्रयितुं घटस्य रूपं न भवितुम् अर्हति
हा समीचीनं भगिनि अस्तु तृतीयबिन्दुं पठतु
बिलस्य मुखे सर्पः वर्तते तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते अवगतं भगिनि बिलस्य मुखे
सर्पः
बिलम् अवगतं मुखे सर्पः वर्तते तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते अवगतं
सर्पे क्रिया अस्ति कीदृशी क्रिया प्रसर्पणक्रिया तर्हि वयं कदाचित्
प्रसर्पणक्रिया किञ्चित् अग्रे चलिता इति सम्भाव्यते इत्यपि प्रश्नं वा
प्रसर्पणक्रिया अग्रे गच्छति सर्पः बिले वर्तते इति कदाचित् सम्भाव्यते वा
सर्पं बिले वर्तते इति सम्भवति सर्पणक्रिया अस्ति
सर्पं त्यक्त्वा अग्रे चलति वा
न सम्भवति न सम्भवति अवगतं सर्पणक्रिया सर्पं विहाय प्रथमघटं विहाय अन्यत्र तद्वत् अत्र अपि बिलस्य मुखे सर्पः वर्तते सर्पणत्वं अथवा क्रिया विहाय अग्रे चलति चेत् तत् असम्भवम् एतत् असम्भवम्
सर्पः यत्र तत्रैव तस्मिन्
तस्मिन् सर्पणक्रिया अस्ति अवगतम्
इति अवगन्तव्यम् अस्तु समीचीनम् अस्तु इतोपि एकः प्रश्नः अस्ति सरला भगिनी पठति वा अग्रे
आं भगिनि एकस्मिन् हृदये घटपतितः घटः हृदतलं गतः घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित् अत्र घटः हृदये मीन्स् तडागे अधः पतितः किन्तु घटः हृदयस्य उपरि हृदयस्य उपरि तरति इदानीं घटे यः धर्म अस्ति घटत्वं तदा तत् घटविहाय भवितुं शक्नोति वा इति प्रश्नः आगच्छति कथम् अहं जानीमः घट उपरि तरति कारणं कि घटे घटत्वम् अस्ति इति प्रश्नः अस्ति घटत्वं घटं विहाय भवति वा
समीचीनं सर्वैः अवगन्तव्यमस्ति अस्तु इमे चत्वारः प्रश्नाः हृदे इत्युक्ते सरोवरे घटः पतति अधो गच्छति चेत् घटस्य घटत्वम् उपरि तरति वा इति प्रश्नः तथा भवति वा भगिनि सरला भगिनि
अस्तु घटं विहाय घटत्वं न भवति घटत्वम् उपरि तरति वा कथं जानीमः घट अधो गतः वयम् उपरि घटत्वं न पश्यामः
घटमेव उपरि न पश्यामश्चेत् घटत्वम् उपरि तरति इति न वक्तुं शक्नुमः अस्तु भगिनि तर्हि सारांशरूपेण तद् चतुरः बिन्दून् पठतु कृपया
तर्हि भगिनि अत्र प्रश्नः अस्ति घटः तत्र परमाणुः तत्रापि अस्ति खलु घटे तत्र परमाणुषु घटत्वं तु अस्ति
परमाणुषु सर्वाः जातयः न स्वीकृताः अस्तु किन्तु भवत्याः प्रश्नः कः
घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित् इति चेत् तत्र मृत् अस्ति चेत् तत्र तस्मिन् घटत्वं नास्ति इति वदामः वा? घटः नास्ति इति कृत्वा घटत्वं नास्ति
इति एव. घटः अधोगतः इत्युक्ते ह्रदे पतितः अधोगतः इति चिन्तयतु. सिङ्क् अभवत्, परन्तु घटत्वम् उपरि अस्ति वा इति प्रश्नः. यत्र घटत्वम् अस्ति तत्रैव, क्षम्यतां, यत्र घटः अस्ति तत्रैव घटत्वं खलु.
अस्तु, यद्यपि तत्र परमाणुः अस्ति तथापि तत्र घटत्वं नास्ति.
कुत्र परमाणुः अस्ति?
घटे घटे यदा मृत् अभवत् तत्र परमाणुः अस्ति इति न वदामः वा?
घटे मृद् अभवत् इत्युक्ते किं?
तत्र मड् अस्ति खलु, तस्मिन् तत् परमाणुः, तत्र परमाणुः नास्ति वा?
हा, घटे घटे यद् मृद् अस्ति तस्मिन् अस्ति परमाणुः.
हा, परन्तु तत्र परमाणुषु तत्र घटत्वं नास्ति, यतोहि घटः एव न, घटः नास्ति.
अस्तु, परमाणुषु सर्वाः जातयः न स्वीक्रियन्ते इति प्रथमवार्ता. अस्तु, परन्तु घटनिर्माणसमये ये परमाणवः घटे अन्तर्भूताः भवन्ति तद् घटस्य परमाणवः इति सत्यम्, किन्तु ते अपि परमाणवः घटे एव भवन्ति खलु.
घटः नास्ति चेत् परमाणवः किं तत्र?
परमाणवः तु भवन्ति एव, घटः नष्टः चेदपि परमाणवः भवन्ति एव. अस्तु, तत्र अग्रे पश्येम. तदनन्तरम् अपरस्मिन् वस्तुनि परमाणवः अन्तर्भूताः भवन्ति, घटः नष्टः.
परन्तु तत्र घटत्वं नास्ति तावदेव विषयः.
समीचीनं, घटत्वं नास्ति, सम्यक्. इत्युक्ते यत्र घटः तत्रैव घटत्वं, परमाणवः यदा पृथक् भवन्ति तत्र घटः एव नष्टः इति वार्ता आगच्छति, तत्र घटत्वं न भवति एव. किन्तु अस्तु, अस्मिन् बिन्दौ तु घटः ह्रदतले गच्छति चेत् तत्र घटत्वम् उपरि भवति वा? न कदापि इति. अस्तु, सरला भगिनी समापयतु.
अस्तु भगिनी, चतुर्वचने पठितं तदनन्तरं करोमि
किं
भव अधोभागे चेत् चतुर्वाक्यानि सन्ति
फुट् नोट् इति वा?
नो, सर्वेषां प्रश्नानां प्रथमं सर्वेषां प्रश्नानां न इत्येव समाधानम्, अतः घटस्य कपालं विहाय, द्वितीय रूपस्य घटं विहाय, तृतीय प्रसर्पणस्य सर्पं विहाय, चतुर्थं घटस्य घटं विहाय. इदानीं प्रश्न वयं चत्वारः उदाहरणानि दृष्टवन्तः. प्रथमे उदाहरणे घट कपालं विहाय घटस्य निर्माणं न भवति, अथवा घट कपालं विहाय न निर्मीयतुं शक्नुमः. द्वितीयं तस्य घट भवति, कपाल अस्ति घटस्य आश्रयः. द्वितीय बिन्दु रूपं घटं विहाय न द्रष्टुं शक्नुमः. सो घट भवति रूपस्य आश्रय, गुणद्रवे तिष्ठति. तत् तृतीयमस्ति प्रसर्पणस्य सर्पं विहाय, सर्पं विहाय वयं प्रसर्पणं क्रिया न द्रष्टुं शक्नुमः. अत्र क्रिया सर्पं विहाय न भवति, क्रिया क्रियावतः अस्ति, क्रिया तस्य आश्रयः भवति, क्रियावतः अक्रियावान्. चतुर्थबिन्दुः अस्ति घटत्वस्य घटं विहाय, घटत्व यद्धर्म अस्ति वा ता तस्य आश्रय घटम् एव अस्ति. सो द्रव्यस्य द्रव्यत्वं घटस्य घटत्वं तस्य आश्रय घट द्रव्यं भवति. तेषां सम्बन्ध आधाराधेय भवति वक्तुं शक्नुमः.
तेषां सम्बन्धः आधारादयभावः इति नितरां सत्यमेव. घटकपालयोः मध्ये अथवा घटरूपघटयोः मध्ये, प्रसर्पणक्रिया सर्पयोः मध्ये, अपि च घटत्वं घटत्वयोः मध्ये तादृशसम्बन्धः अस्ति येन न कदापि पृथक् भवितुम् अर्हन्ति खलु. तर्हि सः सम्बन्धः नितरां संयोगः नास्ति इति सर्वैः अवगतं वा? संयोगः इति तत्र भवति यथा प्रथमे उदाहरणे हस्तं हस्तौ विवक्तौ एकत्र आगतवन्तौ पुनः स्वस्थानगतौ तत्रैव संयोगः इति आसीत्। अत्र तथा नास्ति, तर्हि चिन्तनीयं संयोगः नास्ति चेत् किमस्ति अत्र इति। कोऽपि प्रश्नः कस्यचित्? अस्तु, तर्हि इतः अग्रे सरेम। अजितमहोदय अग्रे पठति।
केवलनिमिषानन्तरं पठामि भगिनि।
अस्तु, तर्हि सव्यमहोदय पठति वा अग्रे।
आं भगिनि। कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः। कुतः? पूर्वं प्राप्तयोः बिभिक्तयोः या प्राप्तिः सा संयोग इत्युच्यते। हा, तर्हि अत्र वयम् उदाहरणानि, चत्वारि उदाहरणानि दृष्टवन्तः। तत्र सम्बन्धः संयोगः नास्ति, यथा भगिन्या अपि उक्तम् इदानीं। संयोगः इत्युक्ते किं? हस्तौ संयुक्तौ इत्युक्ते हस्तं प्रथमे भिन्नभिन्नस्थाने अस्ति हस्तद्वयोः हस्तौ, एवं पुनः आगत्य हस्तौ संयुक्तौ इति प्रतीतिः भवति चेत् तत्र संयोगः भवति। तदनन्तरं संयोगः यदा भग्नः तदा हस्तौ पुनः यत्र स्थाने आसीत् तत्र ते गच्छन्ति, तर्हि इति संयोगसम्बन्धे वार्ता अस्ति। परन्तु यत् उदाहरणानि वयं दृष्टवन्तः घटस्य कपालं विहाय अथवा रूपस्य घटं विहाय प्रसर्पणक्रिया सर्पं विहाय एवं घटत्वधर्मः यत् घटं विहाय, अत्र तु संयोगः इति नास्ति। तर्हि संयोगः कुत्र अस्ति इति वदति, कुतः? पूर्वं प्राप्तयोः बिभिक्तयोः या प्राप्तिः सा संयोगः इत्युक्ते हस्तौ संयुक्तौ इति आसीत् तत्र संयोगः। परन्तु अत्र चत्वारि उदाहरणानि यद् दत्तमस्ति तत्र संयोगः इति नास्ति, इति न संयोगः।
समीचीनं महोदय। पूर्वम् अप्राप्तयोः अप्राप्तिः अनन्तरं प्राप्तिः इति संयोगः। अस्तु, अग्रे अपि किञ्चित् चित्रस्य विषये वदतु।
अतः संयोगं विहाय अन्यः किञ्चित् सम्बन्धः एतेषां स्वीकार्यः इति अस्ति। तर्हि चित्रे अत्र किम् अस्ति, द्रव्ये द्रव्यम् अस्ति, गुणः अपि द्रव्ये अस्ति। अत्रापि यथा वयं चर्चितवन्तः अत्र आधारभावः इति अस्ति, इत्युक्ते अधिकरणम् अत्र अधोभागे अस्ति, द्रव्ये द्रव्यम् इति अस्ति। तर्हि द्रव्यम् इति अधिकरणम्, आधेयम् इति द्रव्यम् अस्ति प्रथमं, तदनन्तरं गुणः अपि द्रव्ये इति भवति। तर्हि आधेयं गुणः अधिकरणं द्रव्यं, क्रिया अपि द्रव्ये भवति, इत्युक्ते आधेयं क्रिया अधिकरणं द्रव्यम्।
आधेयः महोदय,
आधेयः, नियतलिङ्गपदं
केवलं सर्वेषां ज्ञापनार्थं वदामि। गुणः भवतु, क्रिया भवतु, सामान्यं भवतु, अस्तु, तत्र लिङ्गभेदः जायते एव खलु, नपुंसकलिङ्ग पुल्लिङ्ग श्रीलिङ्ग, परन्तु आदेयः इति नियतलिङ्गशब्दः, विशेषनिघ्नः नास्ति इति कृत्वा समानलिङ्गः आधेयः एव भवति। अस्तु, अग्रे महोदय।
इदानीं सामान्यं कुत्र भवेत्? सामान्यं द्रव्ये गुणः एवं कर्म इति वयं दृष्टवन्तः। सामान्यं कुत्र भवेत्? तत्र आधेयः सामान्यम्, अधिकरणं द्रव्यं, गुणः कर्म। एवं विशेषः कुत्र भवति इत्युक्ते नित्यद्रव्ये इति विशेषः भवति। एतत् सर्वं वयं दृष्टवन्तः। तदनन्तरं चित्रे अस्ति,
एकनिमिषः, प्रश्नः अस्ति, अस्तु, सर्वेषां मनसि अपि चिन्तनं भवेत्। द्रव्ये द्रव्यमस्ति इति प्रदर्शितं खलु, तत्र घटः भूतले अस्ति, घटः भूतले अस्ति इति वार्ता. तत्र चिन्तयन्तु, घटः अपरत्र भवितुम् अर्हति वा?
आम् भवितुमर्हति.
भवितुमर्हति एव. तर्हि किमर्थं तथा? तर्हि घटः अपरत्र भवितुम् अर्हति चेत् तादृशी स्थितिः नास्ति यत्र पृथक्करणम् अशक्यमस्ति, घटकपालयोः अथवा घटघटरूपयोः सत्त्वप्रसर्पणक्रिययोः अथवा घटघटत्वयोः स्थितिः यादृशी अस्ति तादृशी स्थितिः तु नास्ति किल. तर्हि किमर्थम् अस्यां श्रेण्यां प्रदर्शितवन्तः इति प्रश्नः आगच्छेत्.
एक हि द्रव्यं तत्र कथमस्ति न तद् द्वे द्रव्ये.
हा, तत् तत्र एका विशिष्टपरिस्थितिः अस्ति. सर्वेषां मनसि किञ्चित् किमपि चिन्तनम् अस्ति वा? राधिका भगिनी?
न न
भगिनी, पुनः प्रश्नः पृच्छतु. कः प्रश्नः?
हा, अत्र प्रश्नः अस्ति यत् संयोगः, संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः इति. द्रव्यं गुणः अपि च द्रव्यं क्रिया, द्रव्यगुणकर्म सामान्यं, नित्यद्रव्यं विशेषः इति उदाहरणे दत्ते, उदाहरणानि दत्तानि. पुनः द्रव्यम् अपि च द्रव्यम् इति अपि सूचितम्. परन्तु वयं जानीमः हस्तः अपि एकं द्रव्यम्, अपरहस्तः अपि एकं द्रव्यं, तयोः मध्ये कः आसीत् भगिनी सम्बन्धः?
संयोगसम्बन्धः.
हा, संयोगः. परन्तु घटः इति ते चिन्तयन्तु भगिनि एकनिमिषं. परन्तु घटः इति द्रव्यं, घटरूपम् इति किं?
गुणः.
गुणः. तयोः मध्ये संयोगः भवितुमर्हति वा?
न भवति इति इदानीमेव दृष्टम्.
हा, इदानीमेव तद्वयं दृष्टवन्तः. अस्तु, तर्हि तत्र सङ्गीता भगिनी वदतु, द्रव्यम् अपि च क्रिया तयोः संयोगः भवितुमर्हति वा?
द्रव्यम् अपि च क्रिया
सर्पः, सर्पः इति द्रव्यं.
हा, सर्पः, सर्पः क्रिया,
सर्पः इति द्रव्यं, सर्पे प्रसर्पणक्रिया.
अस्तु,
तयोः
अत्र किं वक्तव्यं
वदतु?
अत्र किं वक्तव्यं? तयोः मध्ये संयोगः भवति वा इति पृच्छति भवती. तयोः मध्ये संयोगः न भवितुमर्हति.
किमर्थम्?
सर्पे तु सर्पणक्रिया तु सर्पे भवति एव, तस्य गुणः तत्, तत्कारणेन संयोगः तस्मिन् भवितुं न अर्हति.
इत्युक्ते पृथक् न भवति, क्रिया अस्ति न तु गुणः.
पृथक्, हा, क्रिया पृथक् न भवति कारणेन,
इति कारणेन किल. तर्हि सुमित्रा, हा, सुमित्रा भगिनी वदतु, द्रव्यगुणकर्मणि सामान्यम् इति पदार्थः यः अस्ति तयोः मध्ये संयोगः भवितुमर्हति वा?
भगिनी पुनः एकवारं सम्यक्तया न अवगच्छति अपि, किञ्चित् भ्रमणम् अस्ति.
द्रव्यं घटः इति द्रव्यम्, घटे किं सामान्यमस्ति?
घटत्वम् इति गुणः.
घटत्वम् इति सामान्यं खलु भगिनि, जातिः गुणः?
क्षम्यतां भगिनि,
घटत्वम् इति सामान्यम् अस्ति खलु, जातिः?
अस्तु
किल, घटत्वम् इति जातिः अपि च घटः तयोः मध्ये संयोगसम्बन्धः भवति वा इति प्रश्नः. एतावता अस्माभिः किं चर्चितं? संयोगः कुत्र भवति? अस्तु, अजितमहोदय किञ्चित् साहाय्यं करोति वा? अस्तु सुमित्रा भगिनी तर्हि किञ्चित् शृणोतु
भगिनी भगिन्याः प्रश्नः किमर्थं द्रव्यं द्रव्ये उपरि स्थापयति तत्र संयोग एव भवति इति खलु
अत्र सुमित्रा भगिनी भगिन्याः कृते मम प्रश्नः आसीत् यत् द्रव्ये द्रव्यत्वम् अस्ति खलु तयोः मध्ये संयोगः भवति वा इति
न भवति
किमर्थं न भवति महोदय
इत्युक्ते तत्र तत् धर्मः अथवा जातिः द्रव्यत्वं द्रव्यं विहाय न भवति तदेव कारणात् संयोगः भवितुं नार्हति
सुमित्रा भगिनी अवगच्छति अस्तु तर्हि संयोगः इति कश्चन गुणः अस्तु अथवा सम्बन्धः द्वयोः हस्तयोः मध्ये भवति खलु आरम्भतः यदा वयं पठितवन्तः एकत्र प्राप्तिः तदनन्तरं द्विविक्तिः इत्युक्ते पृथक्करं तत्रैव संयोगः भवति
यदा आगच्छति द्वयोः सम्बन्धः अस्ति पुनः गच्छति स्वस्थानि
इति संयोगः तदनन्तरं वयं कानि उदाहरणानि दृष्टवन्तः घटकपालयोः पृथक्करणं शक्यं वा
न
तर्हि तत्र संयोगः भवितुम् अर्हति वा किं अत्र वार्ताका इति चेत् संयोगः कुत्र कुत्र भवति यत् पृथक् आसन् एकत्र प्राप्तिः तदनन्तरं वियोगः तत्र संयोगः घटः अपि च कपालः तयोः पृथक्करणं न अशक्यम् न शक्यं न कदापि पृथक् भवतः इति कृत्वा तत्र नास्ति तत्र संयोगः नास्ति घटरूपम् अपि च घटः पृथक् कर्तुं शक्यते वा
घटरूपम् अपि च घटः न
कर्तुं शक्यते तर्हि तत्र संयोगः भवितुमर्हति वा
न
सर्पः सर्पः अपि च तस्मिन् प्रसर्पणक्रिया तत्र संयोगः भवितुम् अर्हति वा घटत्वं घटः तत्र
न कर्तुं शक्यते
हा तत्र तत्र संयोगः भवितुम् अर्हति वा इति प्रश्नः
न कर्तुं शक्यते
न कर्तुं शक्यते खलु इति एव वार्ता तर्हि अपरः कश्चन सम्बन्धः स्वीकार्यः अस्तु इति एव सव्यमहोदय अधुना पठितवान् अतः तत्र चित्रस्य उपरि पश्यतु अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः केषां स्वीकार्यः
द्रव्यं गुणः कर्म इति
तत्र पञ्च उदाहरणानि सूचितानि चित्रे द्रव्यं तस्मिन् द्रव्यं द्रव्यं गुणः द्रव्यं क्रिया द्रव्यगुणकर्म अपि च सामान्यं जातिः नित्यद्रव्यं विशेषः तत्र अपरः कश्चन सम्बन्धः आवश्यकः इति वदति अवगतं वा हा किन्तु किञ्चित् चिन्तयामश्चेत् सहजतया प्रश्नः आगच्छेत् यद् द्रव्यं द्रव्ये संयोगेन भवितुम् अर्हति खलु इति किल इति एव मम मूलप्रश्नः आसीत् यथा हस्तः हस्ते अहं किमपि स्थापयामि कागदं स्थापयामि द्रव्ये द्रव्यमस्ति इति आगच्छति तत्र संयोगः भवितुमर्हति किन्तु किमर्थं तथा प्रदर्शितवन्तः कोष्टके अस्मिन् चित्रे इति प्रश्नः उदेति मनसि खलु तर्हि अधुना
अवयवः
अधः दत्तमस्ति अस्तु तदर्थं परिशीलनीयं भवति संयोगः कुत्र कुत्र न भवितुम् अर्हति इति तेन अवगच्छामः समवायः इति नूतनशब्दः यः आगतः तस्य अर्थः कः इति अस्तु
अस्तु
समीचीनम् अस्तु अजित धन्यवादः अजितमहोदय तर्हि चित्रद्वयं विवृणोतु किञ्चित् तत्र अधोभागे
आम् द्वितीयचित्रे कपालाद्यवयवाः घटाद्यवयविनः द्रव्यं गुणवत् रूपादिगुणाः, द्रव्यं क्रियावत् उक्षेपणादिक्रियाः इति. तत्र चित्रं पश्यति चेत् अध कपाल अवयवाः इति लिखितं. कपाल अवयवः अस्ति चेत् घटः अवयविनः इति उच्यते. इत्युक्ते यत् पदार्थम् अवयविना उत्पद्यते तदेव यत् पदार्थ अवयवाः उत्पद्यते तदेव अवयविना इति.
कपालः अवयवः, अवयवः इत्युक्ते भागः, यथा शरीरावयवः तद्वत् कपालः कस्य अवयवः?
घटस्य.
घटस्य अवयवः, अतः घटः अवयवी इति उच्यते. कपालः अवयवः, घटः अवयवी, यथा गुणी इति शब्दः, गुणः यस् अस्य अस्मिन् वा तद्वत् अवयवः अस्य अस्मिन् वा इत्यस्मिन् अर्थे अवयवी घटः. बहुवचने अवयविनः, तदर्थमेव
कपाल आदि अवयवः इति.
कपालादि अवयवः अपि च घटादि अवयविनः इति अस्ति. अपि च महोदय एतदपि वक्तव्यं भवता, पूर्वं यत्र पूर्वस्मिन् कोष्टके चित्रे अस्माभिः ऊर्ध्वगामिनी शरः दृष्टः खलु, अपडारो द्रव्ये द्रव्य तत्र अस्माकं प्रयोगः कथं भवति, द्रव्यनिष्ठद्रव्य द्रव्यनिष्ठगुणः तथा भवति किल.
अत्र अधो गतशरः तदेव कारणात् घटादि अवयविनः कपालादि अवयवयोः तिष्ठति इति.
इति वार्ता, यथा मया पूर्वमपि उक्तं मनसि भवेत् यत् अधोगामिनीशरे आश्रयः, आश्रयः इति स्थापयामः खलु. तर्हि घटादि अवयविनः कुत्र तिष्ठन्ति? कपालाद्यवयवाः तत्र तिष्ठन्ति. घटाद्यवयविनः आश्रयः कपालाद्यवयवः. कपालः आश्रयः, घटः तत्र आधेयः इति न्यायशास्त्रे कश्चन प्रमुखसिद्धान्तः अस्तु. अवयवी अवयवे तिष्ठति इति, अतः घटाद्यावयविनः आश्रयः कपालाद्यवयवाः इति आगच्छति.
इतोपि अधिकं वदति चेत् उदाहरणं प्रथमचित्रे द्रव्यं गुणं स्वीकुर्मः चेत् द्रव्यं नास्ति चेत् गुणः न भवति. तथा द्वितीयचित्रे कपालः अथवा अवयवः नास्ति, अवयवः नास्ति चेत् अवयविनः अवयवी न भवति इति.
समीचीनं महोदय, न इति न भवति, अथवा कपालः पृथक् भवितुम् अर्हति अपरत्र, परन्तु यावत्पर्यन्तं कपालद्वयसंयोगः न भवति घटः न भवति. यदा घटस्य स्वतन्त्रतया अवस्थितिः न स्यात् एव, कपालस्य स्वतन्त्रतया अवस्थितिः भवेत् किन्तु घटस्य नास्ति तथा इति वार्ता. अस्तु महोदय, अस्तु तर्हि एतत् चित्रं यद् महोदय अधुना उक्तवान् कपालाद्यवयवः घटाद्यवयविनः इति चित्रम् उपरि द्रव्यं द्रव्यम् इति अस्ति खलु, तत्र सम्बद्धम् अस्ति इति मनसि भवेत्. अस्तु महोदय अग्रे पठतु.
यत्र क्षम्यतां, घटादि इत्युक्ते यत्र किं घटादि?
घटः पटः इत्युक्ते अवयविनः भगिनि, यस्य कस्यापि अवयवाः सन्ति परमाणुं विहाय.
अस्तु अस्तु.
अथवा आकाशं विहाय, कालं विहाय तथा.
अस्तु धन्यवादः.
अग्रे महोदय.
अस्तु, द्वितीय उदाहरणम् अस्ति रूपादिगुणाः आश्रयः द्रव्यं गुणवत् इति. तत्र यथा प्रथमचित्रे वयं पश् दृष्टवन्तः गुणः गुणनिष्ठद्रव्यम् इति अत्र गुणनिष्ठद्रव्यम् अस्ति चेत् द्रव्यं गुणवत् इति वक्तुं शक्नुमः.
महोदय एकनिमिषः, द्रव्यनिष्ठगुणः
क्षम्यतां, द्रव्यनिष्ठगुणः अथवा गुणाश्रयद्रव्यम् इति तत्र तदेव कारणात् द्रव्यं गुणवत्, द्रव्यं गुणवत् इति वक्तुं शक्नुमः. तत्र रूपादिगुणाः आश्रयः, क्षम्यतां,
रूपादिगुणानाम् आश्रयः द्रव्यं, तावदेव
आश्रयः वा
आश्रयः, हा किं तत्र किम् अभवत् अजित्
महोदय? परन्तु तत्र अधोशरमस्ति खलु.
सत्यम्, आश्रयः इति स्थापयतु, रूपादिगुणाश्रयः द्रव्यं, तावदेव, अन्यत् किम्? अधोगामिनिशरे आश्रयः इति स्थापयति महोदय.
सम्यक्,
अस्तु अग्रे.
अस्तु, अनन्तरं क्रिया, क्रिया अपि च क्रियावत् सम्बन्धमस्ति. तत्र द्रव्यं क्रियावत् उत्पेषण उत्क्षेपणादिक्रियाः, तत्र उत्क्षेपणादिक्रियाः आश्रयः द्रव्यं क्रियावत् इति वक्तुं शक्नुमः.
अग्रे
अग्रे तृतीय चित्रे घटत्वादिजातिः, तत्र सामान्य निरूपणम् अस्ति. घटत्वादिजाति आश्रयः घटादिव्यक्तिः जातिमति इति, व्यक्तिः जातिमति इति वक्तुं शक्नुमः.
घटत्वं कुत्र अस्ति?
घटत्वं घटे अस्ति
अथवा घटव्यक्तौ अस्ति इति, व्यक्तिः
घटव्यक्तौ अस्ति.
घटव्यक्तिः इत्युक्ते
प्रत्येकघटः,
प्रत्येकं घटः इत्युक्ते व्यक्तिगतरूपेण वयं किं पश्यामः, एकं घटं पश्यामः खलु, सः एव घटव्यक्तिः इति.
अनन्तरं विशेषस्य चित्रीकरणं, तत्र विशेषाश्रयः नित्यद्रव्याणि इति, तत् केवलं पूर्वं यथा पूर्वं तत् नित्यद्रव्यम् आकाशमन आत्मनि, तत्र विशेषः
परमाणुषु.
परमाणुषु,
समीचीनं महोदय. तर्हि एतेषु पञ्चस्थलेषु यद् भवान् पठितवान् अधुना, अवयव अवयवी अपि च द्रव्यगुण द्रव्यक्रिया व्यक्तिः जाति जातिमति व्यक्तिः अपि च जातिः अपि च नित्यद्रव्यं विशेषः, तत्र तत्र पृथक्करणं शक्यं वा?
पृथक्करणं न शक्यते
खलु. तादृशी परिस्थितिः नास्ति यस्मिन् पृथक्करणं भूत्वा पुनः आगच्छति, तथा नास्ति एव. अत्र पृथक्करणं शक्यं वा अवयवावयविनोः?
न.
द्रव्यगुणयोः अपि तथा, अपि च क्रियावत् गुणवत् द्रव्यं गुणः, तयोः अपि पृथक्करणम् अशक्यम्, अपि च क्रियावत् द्रव्यं क्रिया, तयोः अपि पृथक्करणम् अशक्यं, जातिमति व्यक्तिः अपि च जातिः, तयोः अपि न शक्यम्, अतः जातिव्यक्त्योः पृथक्करणम् अशक्यम् इति वदामः. नित्यद्रव्यविशेषः, तयोः अपि पृथक्करणम् अशक्यम्. अस्तु, तर्हि अस्माकं मूलप्रश्नः कः इति चेत्, अनयोः पृथक्करणं न शक्यं चेत् तयोः मध्ये संयोगं विहाय अपरः कोऽपि सम्बन्धः भवेत्. समीचीनं,
तदेव समवायः इति
शास्त्रे व्यवह्रियते. अस्तु, इति अग्रिमपरिच्छेदः पठेम तत्र. अस्तु, तत्र सङ्गीता भगिनी पठति वा अग्रिमपरिच्छेदम्?
भगिनि एकः प्रश्नः अत्र क्षम्यताम् अत्र विशेषः अपि च नित्यद्रव्यं पृथक् कर्तुं न शक्नुमः इति कथं ज्ञायते?
हा इत्युक्ते परमाणुः इति वयं स्वीकृतवन्तः, परमाणु निरवयवी खलु, निरवयवी इत्युक्ते अवयवः न सन्ति, परमाणूनां भेदज्ञापनार्थं विशेषः इति. अधुना अस्तु, पृथक् कर्तुं न शक्यते इति किं भौतिकरीत्या न द्रष्टुं शक्नुमः, यथा घटः कपालः इति वयं द्रष्टुं शक्नुमः पृथक्करणम् अशक्यम् इति. परमाणुस्तरे किञ्चित् सैद्धान्तिकरीत्या चिन्तनीयं भवति खलु, यदि परमाणुतः विशेषः पृथक् कृतः चेत् तर्हि किम् अवशिष्यते परमाणु परमाणौ भेदज्ञापनाय?
किमपि नास्ति इति कृत्वा तत्र अत्र विशेषत्वम् इति नास्ति खलु, तत्र अत्र स्वतो व्यावर्तकत्वम् इति वा?
विशेषे स्वतो व्यावर्तकत्वम् अस्ति.
तर्हि इदानीम् अत्र विशेषत्वम् इति नित्यद्रव्ये अस्ति इति वदामः वा?
न, नित्यद्रव्ये विशेषः अस्ति, विशेषः
न तु विशेषत्वं.
न, विशेषः इति पदार्थः नित्यद्रव्ये अस्ति, अपि च तद् पृथक् कर्तुमपि न शक्यते.
अस्तु,
इति वार्ता अस्ति.
अस्तु,
राधिका भगिनी प्रश्नः.
कपाले कपाले कपालत्वम् अस्ति, तदनन्तरं कपालद्वयोः यदि वयं घटः स्थापयामः चेत् तत्र कपालत्वं न भवति, घटत्वम् एव भवति.
कपालत्वमपि भवति कपाले, यद्यपि दर्शनार्थं दर्शनेन वयम् एकमेव घटं पश्यामः इति सत्यम्, आहत्य घटव्यक्तौ घटत्वम् अस्ति इति सत्यम्, किन्तु तत्र कपालः अपि अस्ति खलु, कपालद्वयमस्ति, द्वौ कपालौ स्तः, उभयोः मध्ये स्वस्य स्वस्य कपालत्वम् अस्ति एव.
एवं वक्तुं शक्नुमः वा कपाले घटत्वम् अपि अस्ति इति?
न, कपालः एकः पृथक् पदार्थः, घटे घटत्वम् अस्ति भगिनि, कपालद्वयमेलनेन यः नूतनः पदार्थः जातः घटः इति, तस्मिन् घटत्वम् अस्ति इति सत्यं, परन्तु कपाले घटत्वं नास्ति.
न, तस्मिन् कपाले एव अहं वदामि, कपालद्वयं मेलनेन
तस्मिन्
घटः
तथापि नास्ति. कपालः इति स्वयम् एकः तन्तुः अपि च पटः इति चिन्तयतु. अस्तु, यः तन्तुः पटे गच्छति, पटस्य निर्माणसमये उपयुज्यते, तस्मिन् पटत्वम् अस्ति इति वक्तुं शक्यते न वा इति भवत्याः प्रश्नः खलु?
तदेव,
तथा न भवेत्. तन्तौ तन्तुत्वम् अस्ति तावदेव, आहत्य पटे पटत्वम् अस्ति इति वार्ता. अस्तु,
यदा घटे घटत्वम् अस्ति तत् घटत्वे घटे कपालत्वमपि अस्ति, घटत्वमपि द्वे
न न न, घटे घटत्वं कपाले कपालत्वं तावदेव. घटः इति एकं सम्मिलितं रूपम् अस्ति कपालद्वयस्य इति चिन्तयतु, तस्मिन् घटत्वम् अस्ति तावदेव, कपाले कपालत्वम् अस्ति. अस्तु
अस्तु
अस्तु, समीचीनं. तर्हि अस्तु, तर्हि एषु पञ्चषु स्थलेषु संयोगः न भवति इति वयं दृष्टवन्तः, तर्हि अपरः कोऽपि सम्बन्धः स्यात्, सः सम्बन्धः कः इति प्रश्नः. सङ्गीता भगिनी भवती पठति वा अग्रिमपरिच्छेदम्?
आं पठामि. सः सम्बन्धः एव समवायः, अवयव अवयविनोः गुणगुणिनोः क्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः. तत्र आश्रयाणाम् आदेयानां च नानात्वे अपि लाघवात् अयं समवायः एक एव इति स्वीक्रियते. पूर्वं वयं दृष्टवन्तः इति संयोगः इति न, एतेषां सम्बन्धः संयोगः इति न इति. संयोगः न इति चेत् तस्य नाम किम् इति प्रश्नः उदेति, सम्बन्धः कः इति. सम्बन्धः समवायः इति इदानीम् उक्तम्. समवायः कुत्र इति चेत् अवयव अवयविनोः मध्ये गुणगुणिनो गुणिनः मध्ये क्रियाक्रियावतः क्रियावत् मध्ये जातिवत् व्यक्त्योः मध्ये विशेषनित्र नित्यद्रव्ययोः मध्ये यत् सम्बन्धः यः सम्बन्धः अस्ति तत् समवायः इति उक्तमत्र. तत्र आश्रयाणाम् आदेयतां च नानात्वे अपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते. एतत् अहं न अवगच्छति भगिनि.
अहं वदामि. अस्तु, तर्हि आहत्य प्रथमतया समवायः कुत्र कुत्र भगिनि पुनः?
अवयव अवयविनः मध्ये गुणगुणिन गुणिनः मध्ये
यथा
भगिनि
यथा उदाहरणं ददातु अवयव अवयविनोः मध्ये इत्युक्ते
घटस्य कपालस्य मध्ये.
तत्र घटकपाले अवयवः कः अवयवी किम् अवयवी किं कः
अवयवः कपालः अवयवी घटः भवति.
हा, बहु समीचीनमस्ति. तर्हि तयोः मध्ये अवयवावयविनोः मध्ये समवायः. अनन्तरं
अनन्तरं गुणगुणिनः मध्ये तस्य उदाहरणं तु घटः रूपः मध्ये यत् भवति तत् गुणगुणिनः गुणः रूपः भवति रूपं भवति गुणिनः घटं भवति.
हा, गुणः रूपं भवति. रूपम् इति नपुंसकलिङ्गं, गुणः रूपं. समीचीनं,
गुणः रूपं भवति.
गुणी कः तत्र?
गुणिनः गुणी घटं भवति घटः भवति तत्र.
गुणी गुणिनः इति बहुवचने अस्ति. अस्तु, गुणी
बहुवचने
गुणगुणिनोः तादृशसमवायः. अनन्तरं
क्रिया क्रियावत् मध्ये समवायसम्बन्धः भवति. अत्र प्रसर्पण क्रिया सर्पः तयोः मध्ये भवति. क्रिया तु प्रसर्पणक्रिया, क्रियावत् तु सर्पः भवति.
हा, बहु समीचीनमस्ति भगिनि. मतुक् प्रत्ययः यस्मिन् क्रिया क्रियावत् इति प्रातिपदिकं, क्रियावान् सर्पः. अस्तु, तर्हि षष्टि द्विवचने क्रिया क्रियावतोः मध्ये समवायः. अस्तु, अनन्तरं कुत्र समवायः?
अस्तु, अनन्तरं जाति व्यक्त्योः मध्ये. अत्र जातिव्यक्त्योः घटत्वगत एतत् उदाहरणं स्वीकर्तुं शक्नोति वा? घटत्वं घटं
सत्यम्.
अत्र जाति तु घटत्वं भवति, व्यक्ति तु घटं भवति.
घटः, समीचीनं.
घटः घटः.
जातिः इत्युक्ते सामान्यं, व्यक्तिः इत्युक्ते
सामान्यं
व्यक्ति तस्मिन् सामान्य यः कोऽपि सदस्यः भवति. यथा घटत्वम् इति जातिः, तत्र घटः इति व्यक्तिः. अस्तु, तत्र किं भवति, कीदृशसम्बन्धः?
समवायसम्बन्धः भवति.
समवायसम्बन्धः. अस्तु, अनन्तरम्?
अनन्तरं विशेषनित्यद्रव्ययोः मध्ये
इति पञ्च वदतु.
तस्य उदाहरणं किं किं वक्तुं शक्नोमि?
विशेषनित्यद्रव्ये
विशेषः नित्यद्रव्ये भवति
इत्युक्ते परमाणौ भवति खलु?
परमाणुः अस्ति.
हा, अथवा विशेषः आकाशे अपि भवति, काले अपि भवति.
अस्तु अस्तु, आकाशकाले दिक्मानांसि
विशेषः भवति, अपि च परमाणुः अपि नित्यद्रव्यं, तस्मिन् विशेषः अस्ति. तत्र पुनः कीदृशसम्बन्धः?
समवायसम्बन्धः भवति.
हा, समवायसम्बन्धः भवति, यतोहि तत्र पृथक्करणमेव अशक्यं, संयोगः न कदापि स्वीकर्तुं शक्यते इति कारणतः. बुद्धम्?
अस्तु
अस्तु, अत्र कश्चन अन्तिमवाक्यमस्ति. आश्रयाणाम् आधेयानां च नानात्वे अपि लाघवात् अयं समवायः एकः एव इति स्वीक्रियते इति वयं दृष्टवन्तः. अत्र समवायस्य आश्रयाः इत्युक्ते अत्र यत्र यत्र समवायः भवति तत्र तत्र अनेकाः आश्रयाः सन्ति, आधेयाः अपि नैके आधेयाः अपि सन्ति इति दृष्टवन्तः खलु. कपालः इति एकः आश्रयः, तस्मिन् घटः इति आधेयः, पुनः द्रव्यम् इति एकः आश्रयः, गुणवत् द्रव्यं तस्मिन् रूपादिगुणाः इति आधेयाः. तद्वत् आश्रयाः अपि च आधेयाः बहवः सन्ति, तथापि समवायः एकः एव इति उक्तम्. पश्यन्तु तत्र पूर्वस्मिन् पुटे, चतुर्दशे पुटे, समवायस्तु एक एव इति उक्तं किल. वयं पश्यन्तः स्मः यद् यत्र कुत्रापि निर्देशः भवति तत्र सङ्ख्या उच्यते. यथा नित्यद्रव्यवृत्तयो विशेषाः अनन्ताः, अनन्ताः इति सङ्ख्या उक्ता, समवायः एकः एव इति सङ्ख्या उक्ता. पुनः तत्र किं नवद्रव्याणि इति नव इति सङ्ख्या उक्ता. किमर्थं समवायः एकः एव इत्युक्ते लाघवार्थम्. लाघवं गौरवम् इति किम् इति अग्रे किञ्चित् पश्येम, तदा इतोपि स्पष्टीकरणं भवितुमर्हति. अस्तु
भगिनि, एकः प्रश्नः अस्ति. अत्र घटत्वादिजातिः अपि च घटादिव्यक्तिः इति अस्ति तत्र. तत्र रूपत्वम् अपि, रूपं तत्रापि समवायसम्बन्धः इति वदामः वा? रूपत्वम् अपि
सत्यम्.
अपि च
वदतु,
अपि च तत्र उक्षेपण, उक्षेपणत्वम् अपि च उक्षेपणकर्म, तत्रापि समवायसम्बन्धः.
सत्यं सत्यं, यत्र कुत्रापि सामान्यमस्ति. सामान्यं कुत्र कुत्र वर्तते भगिनि?
द्रव्ये गुणे कर्मणि.
तत्र तत्र तस्य तस्य सामान्यस्य व्यक्तिः अपि स्यात्, तत्र सर्वत्र समवायसम्बन्धः एव.
अतः अत्र घटत्वादि इत्यनेन न केवलं घटः पटः, अपि च यत्र कुत्रापि जातिः अस्ति.
आम् अवश्यम् अवश्यं सत्यं भगिनि. अस्तु, इतः किञ्चित् अग्रे सरेम. भानुचैतन्यमहोदय पठति वा अग्रे? भानुचैतन्यमहोदय अस्ति? अस्तु, सुमित्रा भगिनी अग्रे पठति.
आं भगिनि. लाघव गौरवस्वरूपं, लाघवं नाम विचारसौकर्यम् एवं चिन्तयामः. कश्चित् आपणं गन्तुं प्रवृत्तः, तस्य माता तं प्रति अवदत् गुडं तण्डुलान् चाहर. सः ओम् इत्युक्त्वा निर्गतः. तदैव तस्य भार्या समागत्याः शर्करां, शाकं, सर्षपान्, विद्युद्दीपं, पुस्तकां, पेटिकाम्, अलम् अलम् अलं न प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम्, अतः सर्वं विलिख्य देहि इति सः भार्यां प्रति अब्रवीत्. सौकर्यार्थम् एवं चिन्तनम् इति दत्तम् अस्ति. प्रवृत्तः इत्युक्ते भगिनि?
उद्युक्तः, उद्युक्तः इत्युक्ते इष्टवान्, आरब्धवान्, आपणं गन्तुम् आरब्धवान् कश्चन.
तस्य माता वदति गुडं तण्डुलं चाहर इति न अर्थं जानामि.
आहर, आहर इति आनय. आ उपसर्गपूर्वक हृ धातुः, हर इत्युक्ते हरति इति किञ्चित् स्वीकरोति खलु. आहर इत्युक्ते आनय. माता किं वदति तर्हि?
माता वदति आनयतु गुडं तण्डुलम् इति, तण्डुलान् इष्टवान्. सः ओम् इत्युक्त्वा निर्गतः. ओम् इति आम् इति वा?
सत्यं, तावदेव.
उक्त्वा गच्छति. तदैव तस्य भार्या समागत्याः, भार्या वदति शर्करां, शाकम् इत्यादीनि वस्तूनि, पुस्तकां, पेटिकां.
सशर्पः इत्युक्ते मस्टर्ड् इति.
अस्तु, सशर्पान् अस्तु, विद्युद्दीपं, बल्ब्, पुस्तकं, पेटिकां, सर्वान्. अलम् अलम् इत्युक्ते?
अलम् इत्युक्ते निषेधार्थे, स्थगयतु इति.
क्षम्यतां,
निषेधार्थे भगिनि. अलम् इति वयं श्रुतवन्तः खलु बहुवारं, स्थगयतु इति. अलम् अलम् अलं, स्टाप्.
ओके ओके, न प्रभवामि इमानि सर्वाणि
बुद्धौ स्थापयितुं बुद्धेः स्थापितुं न शक्नोमि इति वा?
हा
अस्तु, अतः सर्वं विलिख्य देहि लिखित्वा ददातु इति भार्यां वदति पतिः.
अस्तु, तर्हि अस्माभिः चिन्तनीयम् अत्र लाघवगौरवविचारः अस्ति. लाघवम् इत्युक्ते किं भगिनि प्रथमवाक्ये?
सौकर्येण यदा मनसि स्थापितुं शक्नुमः.
हा, विचारसौकर्यमेव लाघवम्. तर्हि यदा यदा माता उक्तवती तदा कति वस्तूनि आसन् तत्र?
द्वे वस्तूनि, गुडं तण्डुलम्
इति. यदा भार्या उक्तवती शताधिकानि वस्तूनि आसन् तत्र, तर्हि अत्र अनेन यदा अधिकसङ्ख्यकानि वस्तूनि आगतं. सुमित्रा भगिनी, किञ्चित् एको अस्ति भवतः.
अस्तु, म्यूट् करोमि.
हेड्फोन् मध्ये अस्ति वा? अस्तु, यत्किमपि भवतु. अस्तु, प्रथमवारं यदा न्यूनसङ्ख्याकानि वस्तूनि आसन् तत्र तस्य विचारसौकर्यम् आसीत्, परन्तु यदा अधिकानि जातानि वस्तूनि तर्हि तस्य मनसि कश्चन क्लेशः अनुभूतः. तत्र लाघवं न गौरवम् इति उच्यते. अस्तु, सङ्ख्याविषये किं वक्तुम् इच्छति इति अग्रे पश्येम. अग्रे च विजया भगिनी पठति वा? विजया हेतिराजन् भगिनी अस्ति. भगिनी अन्म्यूट् करोतु यदि पठति चेत्. नो चेत् तत्र शशिकिरणमहोदय.
अहं पठामि भगिनि. अत्र पश्यतु, पूर्वं मात्रा द्वयमेव उक्तं, तदा अङ्गीकृत्य प्रवृत्तः तदाहरणाय. ततः भार्यया पञ्चशाः पदार्थाः उक्ताः, तदा निवार्य भाषणां विलिख्य देहीति वक्ति. को हेतुः? विचारे धारणे वा सौकर्यम्? द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति, अनेकेषां स्थापने भवति. इदमेव विचारसौकर्यं लाघवमित्युच्यते. तद्विपरीतम् असौकर्यं गौरवमित्युच्यते. तथा च अग्रिमे पठामि वा?
न, एतावदा किं बुद्धम्.
अस्तु, अत्र यथा वयं पूर्वं दृष्टं, एकः आपणं गन्तुम् इच्छति मनुष्यः, तदा तस्य माता वदति द्वयं क्षम्यताम् अत्र किम् आपणं दत्वा गुडम् अनन्तरं तण्डुलं तण्डुलान् आनयतु इति. तत्तु द्वे एव सन्ति, अतः मस्तिष्के स्थातुं सुलभं भवति. अनन्तरं यदा तस्य भार्या अपि आगत्य अनेकानि वस्तूनि वदति, स्वीकृत्य आगच्छतु आपणात् इति, तदा सः तदा मस्तिष्के स्थापयितुं किञ्चित् क्लेशः भवति. अतः सः उक्तवान् सर्वं लिखित्वा मम कृते ददातु, अहं स्वीकृत्य आनयिष्यामि इति. किमर्थम् इत्युक्ते बहवः वस्तूनि बहूनि वस्तूनि सन्ति, अतः तत्र सौकर्यं भवितुं न अर्हति मस्तिष्के, अतः लिखित्वा एव सः स्वीकर्तुम् इच्छति.
समीचीनं महोदय, तदेव अस्ति. इत्युक्ते प्रथमवारं विचारसौकर्यं तदेव लाघवम् इति उच्यते. लाघवम् अस्तु, यतोहि सङ्ख्यादृष्ट्या न्यूनम् आसीत्. तदतिरिच्य तद्विपरीतं यदा भार्या उक्तवती तदा असौकर्यं, विचारस्य असौकर्यं जातं खलु, तदेव गौरवम् इति उच्यते. लाघवं च गौरवम् इति. अस्तु, इदानीम् अग्रे पठतु.
लाघवं गौरवं विपरीतपदानि सन्ति.
सत्यम्.
अस्तु, तथा च आश्रयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवमिति लाघवाय विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते. समानमेव अत्रापि बहवः आश्रयाः सन्ति, बहवः आधेयाः सन्ति, अतः तत्र तेषां
मस्तिष्के स्थापयितुं क्लेशः भवति, अतः तस्य गौरवम् इति आवश्यकम्। तस्य विचारसौकर्यं कर्तुं लाघवरीत्या समवायः इति एकः एव अङ्गीक्रियते सर्वे।
इत्युक्ते
भगिनी श्रूयते वा?
आं भगिनि, अधुना श्रूयते। अस्तु, शिवरां कुलकर्णि महोदय, प्रश्नः अस्ति वा? हृ इति दातुः महोदय।
आम्, हर आ इति उपसर्गः अस्ति तत्र आहारमध्ये।
सत्यम्, आ उपसर्गपूर्वक हृ दातुः इति
हरमध्ये। रु इति दातु, रु इति दातु अस्ति न भावगणे,
हृ
रु हरणे इति दातु न,
तादृश
तदेव न,
लोट् लकारः खलु।
धन्यवादः।
आहार
लोट् लोट्
लोट्
लोट् लोट् मध्यमपुरुषः अस्ति तत्तु
आहार इति। अस्तु, तत्र कः उक्तवान्? अधुना शशिकिरण् महोदय। अस्तु, तत्र हा भवान् यथा उक्तवान् तत्र आश्रयाणाम् आदेयानाम् अनेकत्वम् आसीत् खलु?
आम्।
इत्युक्ते वयं दृष्टवन्तः समवायस्थले कपालः इति आश्रयः, घटः इति आदेयः इत्यादिकं भूत्वा बहवः आसन्, तथापि गौरवं मास्तु समवायस्थले, विचारसौकर्यार्थम् एकः एव समवायः पर्याप्तः इति उच्यते। यद्यपि समवायः इति सम्बन्धः बहुत्र वर्तते, पञ्चषु स्थलेषु वर्तते किल, तथापि मास्तु इति, एकः एव समवायः पर्याप्तः इति उच्यते तैः। तर्हि नैयायिकानां पद्धतिः कीदृशी इत्युक्ते सर्वदा लाघवम् इच्छति। यदि संख्या अपेक्षिता, यथा द्रव्याणि, तत्र नवद्रव्याणि अपेक्षितानि एव, पृथक् पृथक् कृत्वा कृत्वा नवद्रव्याणि आसन्, तर्हि तत्र नव इति स्वीकृतं। पुनः गुणः यत्र भवति तत्र, अस्तु तावन्तः गुणाः सन्ति, चतुर्विंशतिगुणाः सन्ति, तर्हि तानि ते गुणाः स्वीकर्तव्याः एव खलु। परन्तु ते चिन्तयन्ति समवायस्थले यदि एकेनैव निर्वाहः भवति चेत्, समवायः इति एकः समानः सम्बन्धः सर्वत्र भवति इति निर्वाहः भवति, तेन किमपि क्लेशः अस्ति वा इति चिन्तयति, नास्ति चेत् एकः एव भवतु इति लाघवदृष्ट्या समवायः एकः एव इति स्वीकृतः। इत्युक्ते
तस्य निरूपणं कर्तुम् एकमेव पर्याप्तम्, अतः समवायं स्वीकुर्वन्ति, गौरवं त्यजन्ति।
हा, गौरव त्यजनार्थम् अल्पसङ्ख्याकमेव, एकसङ्ख्याकमेव भवति समवायः इति पदार्थः, एकसङ्ख्याकः। अस्तु,
आम् अवगतं भगिनि।
अपि च गौरवं लाघवं तत् लघुत्वं गुरुत्वं शब्द तस्मात् आगच्छति किल?
सत्यं भगिनि, इति एव अस्ति। अस्तु, तर्हि अद्य समवायः इति नूतनपदार्थः अस्माभिः दृष्टः। तर्हि विजया भगिनी, तर्हि सारांशरूपेण वदति वा समवायः इति कुत्र कुत्र अस्ति इति?
समवायः इति अवयवाः मध्ये सन्ति, अवयविनः द्रव्यगुणवत् रूपादि, एतत् सर्वं क्रियारूपं गुणम्, एतत् सर्वं समवायः अस्ति। अनन्तरं लाघवगौरवरूपम्
पञ्चषु स्थलेषु सन्ति, अस्तु केवलं पञ्चषु, एकवारं शृणोतु, अस्तु कुत्र कुत्र अस्ति इति मनसि भवेत् सर्वेषां। शिवरां कुलकर्णि महोदय किञ्चित् सहायं करोति वा, कुत्र कुत्र समवायः?
समवायसम्बन्धः पञ्चस्थलेषु भवितुम् अर्हति, अवयव तथा अवयविमध्ये, प्रथमसम्बन्धः अवयव तथा अवयविमध्ये भवितुम् अर्हति, गुणिमध्ये भवितुम् अर्हति, क्रियावान् मध्ये भवितुम् अर्हति, जातिव्यक्तिमध्ये तथा विशेष तथा नित्यद्रव्यमध्ये भवितुम् अर्हति समवायसम्बन्धः।
तर्हि एषु पञ्चषु स्थलेषु समवायः किमर्थं स्वीकृतः?
समवायः तत्र संयोगरूपसम्बन्धः तत्र नास्ति, अवयव तथा अवयविमध्ये तथा यत् वयं पञ्चप्रकारान् अत्र उक्तवन्तः, त तत्र सम्बन्धरूपेण सम्बन्धः नास्ति, किन्तु सम्बन्ध त्यक्त्वा अन्य किञ्चित् सम्बन्धः अस्ति, तस्य नाम समवायः।
तर्हि मम प्रश्नः अस्ति, किमर्थं संयोगं त्यक्तवन्तः इति?
संयोगं तत्र किं भवति, तत्र सम्बन्धः पृथक्ता भवति, सम्बन्धः भवति तथा संयोगमध्ये पृथक्ता भवति तथा सम्बन्धः अपि भवति
पृथक्। यदा सम्बन्धिनोः मध्ये पृथक्त्वं शक्यं, तत्र कः सम्बन्धः?
पृथक्त्वं शक्यमस्ति, सः सम्बन्धः संयोगसम्बन्धः।
संयोगः इति अस्माकं विषयः नास्ति, किन्तु एषु पञ्चसु स्थलेषु पृथक्त्वं शक्यं वा सम्बन्धिनोः मध्ये?
तत्र पृथक्त्वं नास्ति, पृथक्त्वं शक्यं नास्ति तत्र। पञ्चसु स्थानेषु पृथक्त्वं वयं कर्तुं न शक्नुमः।
पृथक्त्वं न कर्तुं शक्नुमः इति कृत्वा
तत्र समवाय इति एक अन्यतमसम्बन्धः तत्र स्वीकृतः न्यायशास्त्रेण।
इति नूतनः सम्बन्धः आवश्यकः,
नूतनसम्बन्धः, तत् सम्बन्धः स्थापितुम् एक अन्यतमनूतनसम्बन्धः न्यायशास्त्रेण स्वीकृतः अस्ति तत्र, तस्य नाम अस्ति समवायसम्बन्धः।
समवायः इति, अपि च समवायः इति कश्चन पदार्थः, सप्तपदार्थेषु
सहायकः पदार्थः अस्ति,
एकः पदार्थः अस्ति। अस्तु अस्तु, इति सारांशः जातः समवायस्य। विजया भगिनी बुद्धं वा? अस्तु, अन्य कोऽपि? अस्तु भगिनि, अन्य कोऽपि प्रश्नः कस्यचित्? अस्तु, समवायः तु एकः एव इति। तर्हि अस्माभिः एतावता षड् भावपदार्थाः पठिताः, सप्तपदार्थेषु द्रव्यगुणकर्मसामान्यं विशेषः समवायः इति षड् भावपदार्थः। नूतनः अस्माकम् अग्रिमः पदार्थः पठनार्थम् अध्ययनार्थमस्ति अभावः इति, तद् अग्रिमसप्ताहे आरभामः इति। कोऽपि प्रश्नः? अस्तु
भगिनि, लघुप्रश्नः, हर रु हरणे तथा नि नय धातुमध्ये विशेष पृथक्ता किम् अस्ति? अत्र आहर आनय इति रूपमपि भवितुमर्हति तत्र,
इत्येव अर्थः महोदय तत्र।
किन्तु द्वयोः धातोः मध्ये विशेष पृथक्ता किं वर्तते रु तथा नि मध्ये?
यावत् अहं जानामि हरति इत्युक्ते किञ्चित् स्वीकरोति बलेन, अपि च हरति इत्यस्य बलेन स्वीकरोति वक्तुं शक्नुमः। विद्या भगिनी,
तदेव नयति धातोः आनयति, सा हर आहर एव, आ उपसर्गपूर्वक हरति इति धातोः हर लोट् मध्ये पुषे एकवचनं।
सत्यं, विशेषतया मम मनसि तु किमपि नास्ति महोदय, परन्तु यदा वयं हरणं हरति इत्यादिकं वदामः तत्र बलेन स्वीकारः इति कश्चन अर्थः प्रतिपत्तः भवति खलु।
अपहरणमेव भवत्याः उक्तम्, एतत् समीचीनमेव, अपहरणम् इति स्नाचिङ्ग् फ्रम् सम्बडी
इति प्रायः स्यात् इति चिन्तयामि खलु।
मम विचारं तदेव अस्ति, तत्र आहर इति शब्दस्य वा क्रियापदस्य प्रयोगं किमर्थेन कृतम्?
अन्यपदम् आनयतु,
किमर्थं कृतम् इति अहमपि न जाने, किन्तु आहार इत्यस्य आनय इति लोट्
आनयति स्वीकुर्मः।
सत्यम्,
अत्र किमपि वैशिष्ट्यं नास्ति खलु, आनय इति अपि भवितुम् अर्हति अथवा आहार इति,
तावदेव अस्ति। अस्तु अस्तु, तर्हि अग्रिमसप्ताहे अभावः इति पदार्थस्य विवरणं भवति, सः पदार्थः क्लिष्टकरम् इति न वदामि सः विषयः, किन्तु किञ्चित् चिन्तनीयं भवति, चिन्तनम् आवश्यकं भवति तस्मिन् विषये। तर्हि अग्रिमसप्ताहे आरभामहे अभावः। अस्तु,
धन्यवादः भगिनि,
धन्यवादः भगिनि,
धन्यवादः भगिनि,
धन्यवादः।